एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। प्रधानमन्त्री केपी शर्मा ओली राज्येन जनतायै प्रदीयमानायां सेवायां केनापि व्याजेन कथंविधमपि विलम्बनम् न कर्तुम् कर्मचारिणः निर्दिशति। एकविंश सर्वकारीय कर्मचारी सेवा दिवसस्य अवसरे ह्य सिंहप्रासादे आयोजिते मूल समारोह समितेः कार्यक्रमे प्रधानमन्त्री ओली भ्रष्टाचारः अक्षम्यापराधोऽस्तीत्यतः तथा विधेषु दुष्कर्मसु संलग्नः न भवितुम् अनुरुणत्। प्रधानमन्त्री ओली नेपालं सर्वप्रकारेभ्यः समृद्धं विधातुं सर्वै स्वस्वस्थानात् योगदानं विधातव्यमिति बलं प्रादात्। प्रधानमन्त्री ओली जनतायै दुःखप्रदानेन विना अनुकूलानुभूतिं दापयित्वा अस्माकं सन्तत्यै देशाभ्यन्तरे एव संस्थितेः वातावरणस्य सर्जनं समेषां दायित्वमस्तीति प्रावोचत्। प्रधानमन्त्री ओली नेपाली संस्कारे सेवायाः पवित्रतायाश्च भावोऽस्तीत्यतः संविधानस्य विधिश्च व्यवस्थया सहैव कर्तव्य नैतिकतायाः बन्धनमपि विचार्य कार्यं विधातुम् अनुरुणत्। तदवसरे प्रधानमन्त्री ओली वर्तमान सर्वकारेण सर्वकारीय कर्मचारी सेवा विधेयकेन सहितानि महत्वपूर्णानि विधेयकानि यथाशीघ्रं पारितीकर्तुं विमर्शनम् अग्रे वर्धते इति विश्वासम् अदापयत्। तदवसरे प्रधानमन्त्रिणा ओलिना चत्वारिंशत् कर्मचारिण सर्वकारीय सेवा पुरस्कारेण सम्मानिता आसन्। प्रधानमन्त्री ओली दश कर्मचारिण उत्कृष्ट सर्वकारीय सेवा पुरस्कारेण त्रिंशत् कर्मचारिण सर्वकारीय सेवा पुरस्कारेण सममानयत्। उत्कृष्ट सर्वकारीय सेवा पुरस्कारस्य वित्तराशि लक्षं रूप्यकाणि, सर्वकारीय सेवा पुरस्कारस्य वित्तराशि 50,000 रूप्यकाणि च वर्तन्ते। कार्यक्रममे संघीय विषय सामान्य प्रशासन मन्त्री राजकुमार गुप्ता सर्वकारीय सेवा जनतायाः आशायाः विश्वासस्य च केन्द्रमस्तीति अवोचत्। मन्त्री गुप्ता कर्मचारिणां क्षमतायाः विकासेन प्रविधि मैत्री सेवायाः प्रवाहः अद्यतनी आवश्यकता स्थिति प्रत्यपादयत्। प्रधानमन्त्री केपी शर्मा ओली भाषते विशालेन सहिष्णुना न्यायोचितेन च मनसा संवादे विहिते सति नेपाल भारतयोः समस्या समाधातुं शक्ष्यन्ते। जलस्रोत विकास संस्थया बालुवाचारवर्तिनी प्रधानमन्त्री निवासे ह्य आयोजितं पूर्व प्रशासकस्य सूर्यनाथ उपाध्यायस्य अन्तर्राष्ट्रिय जलप्रवाह कानून नेपाल भारत सहकार्यको दृष्टिकोण इति नामकं पुस्तकं लोकार्पयन् प्रधानमन्त्री ओली नेपाल भारतयोः काशाञ्चित समस्यानां समाधानाय आत्मनः प्रस्तावे द्वयोः प्रधानमन्त्रिणोः सहमतौ प्रबुद्धानां जनानां समूहस्य संघटनं विहितमस्तीति अस्मरत्। पुस्तकस्य समीक्षां विदधानः संविधानविद् डाक्टर विपिन अधिकारी नेपालस्य जलसम्पदः सदुपयोगं विधातुं प्रतिवेशिना राष्ट्रेण सह संवादाय बलम् अदात्। सर्वकारेण एतत् विक्रमवर्षीयं संविधान दिवसं राष्ट्रिय दिवसस्य रूपेण दिनत्रयं यावत् विविधै कार्यक्रमै सह समायोजयितुं निर्णीतं वर्तते। द्वासप्तत्युत्तर द्विसहस्रतम वर्षस्य आश्विनमासस्य तृतीयं दिवसं नेपालस्य वर्तमान संविधानस्य क्रियान्वयनस्य आरम्भदिवसम् उत्सवस्य रूपेण स्मर्तुं प्रधानमन्त्रिणः केपी शर्मा ओलिनः अध्यक्षतायां मूल समारोह समितिः संघटिता वर्तते। समित्या आगामिनः आश्विनमासस्य द्वितीये तृतीये चतुर्थे च दिवसेषु नेपाले विदेशस्थितेषु नेपाली दूतावासेषु नियोगेषु च दीपावली प्रभृतीन् कार्यक्रमान् आयोजयितुं तृतीय दिवसे संविधान दिवस मूल समारोहम् आयोजयितुं च निर्णीतं वर्तते। ऋषि पञ्चमी पर्वणि अद्य हिन्दू महिलाः प्रातःकालिक नित्यक्रियां समाप्य गंगायां नद्यादौ हृदकूप तडाग धारादिषु वा यत्य आचारानुसारेण अपा मार्गखण्डानां षष्ट्युत्तर त्रिशतेन दन्तधावनं विधाय स्नान्ति। अस्मिन् पर्वणि दीपकलश गणेश पूजनपूर्वकं सारुन्धतिकः कश्यपादि सप्तर्षयः पूज्यन्ते। अद्य पूजनीयेषु सप्तर्षिषु गौतमः अत्रिः भारद्वाज विश्वामित्रः कश्यपः जमदग्निः वशिष्ठश्च सन्ति। दिवसेऽस्मिन् विभिन्नेषु ऋषिमन्दिरेषु ऋषीणां दर्शनपूजनार्थं महिलानाम् उपस्थितिः प्रवर्धते। लोकोपकारिणां महामनीषिणां ऋषीणां स्मरणं तदीय मार्गम् अनुसृत्य अग्रे वर्धनञ्च अस्य पर्वणः महत्वाधायकपक्षो वर्तते। प्रधानमन्त्री केपी शर्मा ओली कथयति गुणस्तरीय जीवनोपयोगिनी च शिक्षा सर्वकारस्य उच्च प्राथमिकतायां वर्तते। अष्टापञ्चाशत्तमस्य अन्तर्राष्ट्रिय साक्षरता दिवसस्य अवसरे शुभकामना सन्देशं ददत् प्रधानमन्त्री ओली विद्यालयान् गन्तुं योग्याभ्य बालबालिकाभ्य गुणस्तरीय शिक्षाया प्रदानस्य विद्यालय गमनवय अतिक्रान्तेभ्य नागरिकेभ्य जीवनोपयोगिन्या शिक्षाया अवसर प्रदानस्य च विषय सर्वकारस्य प्राथमिकतायामस्तीति उक्तवान् अस्ति। इति समाचारः।